अथ पूर्वांग विघ्नेश्वर पूजा आचम्य ओम अच्युताय नमः ओम अनंताय नमः ओम गोविंदाय नमः केशव नारायण माधव गोविंद विष्णु मधुसूदन त्रिविक्रम वामन श्रीधर ऋषिकेश पद्मनाभ दामोदर अक्षतान् गृहीत्वा शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्न उपशान्तये प्राणायम्य ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओमापः ज्योतिरसः अमृतम् ब्रह्म भूर्भुवः सुवरो सङ्कल्पम् ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरी परमेश्वरप्रीत्यर्थम् लक्ष्मीकुबेर प्रसादसिद्ध्यर्थम् तदेव लग्नम् सुदिनम् तदेव ताराबलम् चन्द्रबलम् तदेव विद्याबलम् दैवबलम् तदेव लक्ष्मीपदेते अङ्घ्रियुगम् स्मरामि करिष्यमान लक्ष्मीकुबेर पूजाकर्मणः निर्विघ्नेन परिसमाप्त्यर्थम् आदौ महागणपतिपूजाम् करिष्ये अप उपस्पृश्य महागणपति आवाहनम् अगजानन पद्मार्कम् गजाननम् अहर्निशम् अनेकदन्तम् भक्तानाम् एकदन्तम् उपास्महे ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नादन्ति प्रचोदयात् अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिम् ध्यायामि महागणपतिम् आवाहयामि ॐ गं गणपतये नमः आसनम् समर्पयामि ॐ गं गणपतये नमः पाद्यम् समर्पयामि ॐ गं गणपतये नमः अर्घ्यम् समर्पयामि ॐ गं गणपतये नमः आचमनीयम् समर्पयामि ॐ गं गणपतये नमः स्नानम् समर्पयामि ॐ गं गणपतये नमः स्नानानन्तरम् आचमनीयम् समर्पयामि ॐ गं गणपतये नमः वस्त्रार्थम् अक्षतान् समर्पयामि ॐ गं गणपतये नमः उपवीतार्थम् अक्षतान् समर्पयामि ॐ गं गणपतये नमः आभरणार्थम् अक्षतान् समर्पयामि ॐ गं गणपतये नमः दिव्यगन्धान् धारयामि ॐ गं गणपतये नमः गन्धस्योपरि हरिद्राकुङ्कुमम् समर्पयामि ॐ गं गणपतये नमः गन्धस्योपरि अक्षतान् समर्पयामि ॐ गं गणपतये नमः पुष्पमालाम् समर्पयामि पुष्पैः पूजयामि ॐ सुमुखाय नमः ॐ एकदन्ताय नमः ॐ कपिलाय नमः ॐ गजकर्णकाय नमः ॐ लम्बोदराय नमः ॐ विकटाय नमः ॐ विघ्नराजाय नमः ॐ विनायकाय नमः ॐ धूमकेतवे नमः ॐ गणाध्यक्षाय नमः ॐ फालचन्द्राय नमः ॐ गजाननाय नमः ॐ वक्रतुण्डाय नमः ॐ शूर्पकर्णाय नमः ॐ हेरम्बाय नमः ॐ स्कन्दपूर्वजाय नमः वरसिद्धिविनायकस्वामिने नमः नानाविधपत्रपुष्पाणि समर्पयामि
धूपम्
ॐ गं गणपतये नमः धूपमाघ्रापयामि
दीपम्
ॐ गं गणपतये नमः दीपम् दर्शयामि
नैवेद्यम्
ॐ भूर्भुवः सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् देवसविता प्रसुवा सत्यम् त्वर्तेन परिषिञ्चामि अमृतोपस्तरनमसि ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा ॐ व्यानाय स्वाहा ॐ उदानाय स्वाहा ॐ समानाय स्वाहा ॐ ब्रह्मणे स्वाहा ॐ गं गणपतये नमः कदलीफलम् निवेदयामि आचमनीयम् समर्पयामि ॐ गं गणपतये नमः ताम्बूलम् समर्पयामि ॐ गं गणपतये नमः समस्तोपचारान् समर्पयामि
प्रार्थ्य
वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा अविघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा नमस्ते भिन्नदन्ताय नमस्ते शिवसूनवे ममाभीष्टप्रदो देव विनायक नमोऽस्तु ते
प्रधानपूजा अक्षतान् गृहीत्वा
शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्न उपशान्तये
प्राणायामम्
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐमापः ज्योतिरसः अमृतम् ब्रह्म भूर्भुवः सुवरो
सङ्कल्पम्
ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतःखण्डे मेरोः दक्षिणे पार्श्वे सकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टिसंवत्सराणाम् मध्ये नाम संवत्सरे अयने ऋतौ मासे पक्षे शुभतिथौ वासरयुक्तायाम् शुभनक्षत्र शुभयोग शुभकरण एवम् गुण विशेषण विशिष्टायाम् शुभतिथौ मम सहकुटुम्बस्य सकल क्षेमस्थैर्य वीर्यविजय आयुरारोग्य ऐश्वर्याणाम् अभिवृद्ध्यर्थम् आयुष्मत् सत्सन्तान समृद्ध्यर्थम् समस्त मङ्गल अवाप्त्यर्थम् समस्त दुरित उपशान्त्यर्थम् समस्त अभ्युदय अर्थञ्च धर्मार्थ काममोक्षादि ऐहिक आमुष्मिक फलसिद्ध्यर्थम् सहकुटुम्बस्य उद्योगविषये व्यापारविषये अति उन्नत फलसिद्ध्यर्थम् राज्याधिकारिणाम् सर्वजनानाम् आनुकूल्यसिद्ध्यर्थम् सौभाग्य सौहार्द सौशील्य सौमनस्य सौजन्य सौलभ्य सौमङ्गल्य सौख्यादि सकल श्रेयसाम् अभिवृद्ध्यर्थम् मम कुमारस्य कुमारीणाम् विद्याविनयगुण लक्ष्मीयशोरूप ऐश्वर्य अनुरागपूर्णस्य अनुरूपवरस्य प्राप्त्यर्थम् मम सहकुटुम्बस्य लक्ष्मीकुबेर पूर्णप्रसादसिद्ध्यर्थम् यथाशक्ति ध्यान आवाहनादि षोडश उपचारैः लक्ष्मीकुबेर पूजाम् करिष्ये तदङ्गम् कलशपूजाम् घण्टापूजाम् मातृगणपूजाम् नवग्रहपूजाम् लोकपालकपूजांश्च करिष्ये तेन धनाकर्षण लक्ष्मीकुबेरम् प्रीणयामि अप उपस्पृश्य ॐ गं गणपतये नमः समस्तोपचारान् समर्पयामि महागणपतिम् यथास्थानम् प्रतिष्ठापयामि शोभनार्थे क्षेमाय पुनरागमनाय च